इयं आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। लोकसभा निर्वाचनस्य सप्तमान्तिम चरणाय च प्रचाराभियानं तीव्रतया प्रचलति। राजनीतिकदलानां शीर्षनेतारः जनसभाः मार्गप्रदर्शनानि च कुर्वन्ति। अस्मिन् चरणे जूनमासस्य प्रथमे दिनांके अष्टराज्यानां सप्तपञ्चाशदासनेभ्यः मतदानं भविष्यति। मतगणना जूनमासे चतुर्थे दिवसे भविष्यति। बिहारराज्ये पटनासाहिब संसदीयक्षेत्रस्य खुसरूपुरक्षेत्रे कांग्रेसनेता राहुलगांधी प्रोक्तवान् यत् एनडीए इति प्रशासनं द्विकोटि युवभ्यः वृत्त्यवसरस्य प्रदानस्य वचनं न पूरितवत्। असौ कथितवान् यत् प्रधानमन्त्री एतदर्थम् उत्तरं निजप्रतिवेदनपत्रे कथयतु। श्रीगांधी पाटलीपुत्र आरा संसदीयक्षेत्रान्तर्गतं पालीगंज आरा जनपदयोः नैर्वाचनिक जनसभां समबोधयत्। लोकसभा निर्वाचनस्य सप्तमे चरणे जून मासस्य प्रथमे दिनांके एतेषु क्षेत्रेषु निर्वाचनं भविष्यति। राजदनेता तेजस्वी प्रसाद यादवः जहानाबाद लोकसभाक्षेत्रस्य घोसी क्षेत्रे आक्षिप्तवान् यत् भारतीय जनता पार्टीति दलं संविधानस्यावसानं वाञ्छति। तत्रैव भाजपेति दलस्य वरिष्ठनेता मध्यप्रदेशस्य च मुख्यमंत्री डॉ मोहन यादवः पाटलिपुत्र संसदीय क्षेत्रात् भाजपा प्रत्याशिनः समर्थने मनेरस्थले जनसभाः विहितवान्। ओडिशाराज्ये बीजेडी प्रमुखः मुख्यमंत्री च नवीन पटनायकः केन्द्रपारा लोकसभाक्षेत्रस्य बरुआक्षेत्रे एकं जनसमागमं सम्बोधितवान्। प्रधानमन्त्री अथ च भारतीय जनता पार्टीति दलवरिष्ठनेत्रा नरेन्द्रमोदी अद्य कोलकातानगरं प्रति यास्यति। तत्र असौ बारासात जादवपुर उत्तर कोलकाता संसदीयक्षेत्रस्य दलप्रत्याशिनः समर्थनाय गच्छति। असौ मध्याह्ने बारासात लोकसभाक्षेत्रे जनसमागमं तदनन्तरं जादवपुरेऽपि जनसभां सम्बोधयिष्यति। प्रधानमन्त्री नरेन्द्रमोदी प्रावोचत् यत् आत्मनिर्भर लक्ष्यान्तर्गतं स्वदैशिक प्रतिभासंवर्धनं वृत्त्यवसर क्षमतानां च संवर्धनमिति उद्देश्यं वर्तते। एकस्मिन् वार्ताभिकरणे स्वीय साक्षात्कारे श्रीमोदी उक्तवान् यत् प्रत्यक्ष लाभार्थी हस्तान्तरणस्य माध्यमेन जनेभ्यः अष्टत्रिंशत् लक्ष रूप्यकाणि साम्प्रतं यावत् आवंटितानि। प्रधानमन्त्री सबलं प्रत्यपादयत् यत् प्रशासनस्य प्रत्येकस्मिन् निर्णये राष्ट्रप्रधानम् एव भवति। दिल्ल्याः मुख्यमन्त्रिणा आम आदमी पार्टीति दलनेत्रा राष्ट्रिय संयोजकेन च अरविन्द केजरीवालेन स्वास्थ्यनिरीक्षणाय स्वीय अल्पावधिक मुक्ति याचिकां सप्तदिनानि यावत् संवर्धयितुं सर्वोच्चन्यायालये याचिका एका प्रस्तुता। अत्रावधौ प्रवर्तन निदेशालयेन गतसप्ताहे दिल्ल्याः एकस्मिन् न्यायालये श्रीकेजरीवालस्य अल्पावधिक याचिकायाः समाप्तेः अनन्तरं न्यायिक निगडनं चतुर्दश दिनानि यावत् संवर्धयितुं याचिकापि प्रख्यापिता। भारतर्तु विज्ञान विभागेन पूर्वानुमानितः यत् अस्मिन् वर्षे प्राविट ऋतोः अवधौ सम्पूर्णे देशे सामान्यवृष्टिः भविष्यति। ऋतुविज्ञानविभागस्य महानिदेशकः डॉ मृत्युंजय महापात्रः दक्षिण पश्चिम प्राविट ऋतोः दीर्घकालिक पूर्वानुमानस्य द्वितीयचरणं प्रख्यापयन् एतां वार्तां कथितवान्। आगामिषु चतुर्षु दिवसेषु केरल उत्तरपूर्वीय राज्येषु प्रावृतेः समारम्भाय स्थितिः अनुकूला वर्तते। इति वार्ताः।